इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना यूएई अध्यक्षेण शेख मोहम्मद बिन जायद अल नाह्यान इत्यमुना सह दूरभाषमाध्यमेन वार्तालापः कृतः। वार्तालापावधौ द्वयोः नेतयोः मध्ये पश्चिम एशिया देशस्य वर्तमानस्थित्यां चर्चा भवत्। श्रीमोदी सामाजिकपटले लिखितवान् यत् यूएई देशस्य उपरि कृतान् आक्रमणान् भारतेन दृढतया निन्दितम्, येषु निर्दोषजनाः मृताः, नागरिकमूलसौकर्याणां क्षतिः चाभवत्। उभौ नेतारौ होर्मुज जलसन्धिना सुरक्षितं स्वतन्त्रञ्च नौचालनं सुनिश्चितस्य महत्वम् अपि प्रतिपादितवन्तौ। पश्चिम एशियायां संघर्षः इतोपि तीव्रतरः अभवत्। ईरानदेशस्य राष्ट्रियसुरक्षापरिषदि रात्रौ इज़राइल आक्रमणे तस्य सुरक्षाप्रमुखस्य अली लारिजानी इत्यस्य मृत्युः अभवत्। वर्तमानयुद्धे ईरानदेशस्य अनुभवसम्पन्नानां प्रभावशालीनां च नीतिनिर्मातृषु अन्यतमस्य अली लारिजानी इत्यस्य मृत्युः तेहरानस्य कृते महताघातः अस्ति। सः स्वपुत्रेण मोर्तेजा लारिजानी इत्यनेन, कार्यालयस्य प्रमुखेन अलीरेजा बयात इत्यनेन, अन्यैः अंगरक्षकैः च सह मारितः। पूर्वम् ईरानदेशस्य मिजान न्यूज एजेंसी इत्यनेन रिवोल्यूशनरी गार्ड इत्यस्य वाजिस बलस्य प्रमुखस्य जनरल गुलाम रेजा सुलेमानी इत्यस्य मृत्योः पुष्टि कृता। सम्बद्धे प्रकरणे अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्प इत्येषः उक्तवान् यत् अधिकांशाः नाटो मित्रदेशाः ईरानदेशस्य विरुद्धम् अमेरिकादेशस्य सैन्यकार्यक्रमे सहयोगं कर्तुं निराकृतवन्तः। संघटनस्य निन्दां कुर्वन् अपि च वाशिङ्ग्टन् इत्येतं विदेशीयसमर्थनस्य आवश्यकता नास्तीति दृढीकृतवान्। लोकसभायाम् अद्य 26,000-27,000-तमवर्षयोः कृते कृषि कृषककल्याणमन्त्रालयस्य नियन्त्रणे अनुदानयाचिकायां चर्चा मतदानञ्च भविष्यति। गृहमन्त्रालयस्य विदेशमन्त्रालयस्य ऊर्जामन्त्रालयस्य च नियन्त्रणे अनुदानयाचिकायाम् अपि सभायां चर्चा मतदानं च भविष्यति। गतरात्रौ लोकसभायां रेलमन्त्रालयस्य नियन्त्रणे अनुदानस्य आग्रहे चर्चायाः प्रत्युत्तरे रेलमन्त्री अश्विनी वैष्णवः अवदत् यत् मोदी प्रशासनेन गतदशके रेलमार्गे महति परिवर्तनं कृतं, विभागस्य सर्वेषु क्षेत्रेषु च कार्यम् अकरोत्।
रेलवे की फाइनेंशियल हेल्थ अभी जो भी प्रयास हुए हैं माननीय प्रधानमंत्री जी के नेतृत्व में इन 10 वर्षों में बहुत सुधरी है। रेलवे का बहुत बड़ा फोकस है सेफ्टी पे, पैसेंजर एमिनिटीज पे और पैसेंजर्स के लिए जो सुविधाएं हैं उनको बढ़ाने के लिए।
अत्रांतरे संसदा विनियोग विधेयकं 26 स्वीकृतम्। राज्यसभया ह्यः चर्चायाः अनन्तरं निम्नसदनं प्रत्यार्पितम्। लोकसभायां पूर्वमेव तस्य अनुमोदनं जातम्। दोहायां भारतीय दूतावासेन उक्तं यत् कतर एयरवेज संस्थया ह्यः भारतं प्रति 5 विमानयानानि प्रचालितानि, येन कतरदेशे वर्तमानस्य वायुप्रदेशस्य प्रतिबन्धस्य मध्ये 16,000-तोप्यधिकाः भारतीयाः नागरिकाः आसन्। दूतावासः अवदत् यत् विमानसंस्थया अद्यारभ्य सम्पर्कस्य विस्तारस्य योजनायाः घोषणाम् अपि कृता, यस्मिन् 9 भारतीयगन्तव्यस्थानानि प्रति विमानयानानि नियतानि सन्ति। दूतावासेन प्रसारितस्य आदेशानुसारं कतरदेशस्य वायुप्रदेशः बहुधा निरुद्धः एव अस्ति। सम्प्रति केवलं केचन विमानयानानां परिचालनस्य अनुमतिः अस्ति। श्रीलंकादेशस्य राष्ट्रपतिः अनुरा कुमार दिसानायके इत्येषः द्वीपस्य अर्थव्यवस्थां रक्षणाय ऊर्जा सुरक्षां सुनिश्चेतुं च आपत्कालीन उपायानां श्रृंखलायां घोषणाम् अकरोत् इति वार्ताः।